चुरुकुमारी भगिनी न श्रूयते
महोदय सरस्वती नमस्तुभ्यं वरदे कामरूपिणी वेद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः आसीत् तत्र सर्वनाम शब्दाः। तत्र वयम् इदं शब्दस्य रूपाणि दृष्टवन्तः, पुल्लिङ्गे, नपुंसकलिङ्गे, स्त्रीलिङ्गे अपि। इदानीं तत्र अग्रे गन्तुम् इच्छामः, किन्तु तस्मात् प्राक् तत्र एकां कथां पठित्वा अग्रे गच्छामः इति। गीताञ्जलि भगिनी नमस्कारः। भगिनी
नमस्ते महोदय, क्षम्यतां महोदय।
चिन्ता मास्तु भगिनि, चिन्ता मास्तु। अतः सर्वेषां पार्श्वे कथा अस्ति वा? तत्र चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च इति। अस्तु अस्तु भगिनि। गीताञ्जलि भगिनि, भवती एव तत्र एकवारं पठति वा? तत्र गतवर्गे पठितवन्तः, किन्तु एकवारं भवती अपि तत्र किञ्चित् पठित्वा तत्र पुनस्मरणं भवति।
आम् महोदय।
अस्तु
अस्तु, एकनिमिषम्। परिवर्तन्ते दुःखानि च सुखानि च, श्रूयते न महोदय? अधुना
तद् तद् सा एव कथा भगिनि, श्रूयते।
अहम् इदानीं महोदय
सूर्यकुमारी भगिनी वदतु भगिनि।
ब्राह्मणः एकां,
किन्तु तत्र कथां सम्यक्तया स्मरामः न वा इति प्रश्नः। भवती स्मरति वा कथां?
सप्ताह अतीतः,
सप्ताह अतीतः खलु। अतः केवलं तत्र शीघ्रतया तत्र प्रायशः तत्र ब्राह्मणः एकां रिक्तां पेटिकां तावत् शीघ्रतया आगच्छामः।
महोदय, कस्मिंश्चित् नगरे माधवः नाम वणिक् निवसति स्म। तस्य पत्नी राधिका, तयोः गोविन्दः गोपालः चेति पुत्रौ आस्ताम्। माधवस्य महत् वाणिज्यम् आसीत्, सः दानपरः अपि इत्यतः अतीव प्रसिद्धः आसीत्।
तत्र सर्वे स्मरन्ति खलु, तत्र माधवः इति कश्चन वणिक् आसीत्, सः पत्न्या सह तत्र राधिका इति तस्य पत्न्याः नाम राधिकया सह तत्र सः निवसति स्म। तत्र तयोः गोविन्दः गोपालः इति पुत्रद्वयम् अपि सः। किमर्थं सः प्रसिद्धः आसीत् भगिनि? सः
दानविषये महोदय, बहु बहु अतीव दानं
करोति स्म इति अपि। तस्य महत् वाणिज्यमपि आसीत्, अतः तत्र कारणद्वयं, समीचीनं
कारणद्वयं, द्वयं प्रसिद्धः जातः।
अतः प्रसिद्धः सः प्रसिद्धः जातः, समीचीनं भगिनि। अग्रे
कालक्रमेण गोपालः गोविन्दः चापि प्रबुद्धौ। तौ वाणिज्ये पितुः साहाय्यं कुर्वन्तौ आस्ताम्। प्राप्ते काले तयोः विवाहः अपि जातः। वणिक् दम्पती पुत्राभ्यां स्नुषाभ्यां च सह सुखेन कालं यापयतः।
अतः किम् इदानीं तत्र पुत्रद्वयं तत्र बालकौ स्तः वा अथवा युवकौ स्तः?
युवकौ स्तः, अपि च ते अपि तस्य पिता साहाय्यं पितुः साहाय्यं कुर्वन्त, तदनन्तरं ते अपि विवाहितौ
आस्ताम्
आस्ताम् हा विवाहितौ आस्ताम् अपि च विवाहं कृत्वा स्नुषाभ्यां पुत्राभ्यां सर्वे सुखेन निवसति स्म.
अस्तु, तत्र समीचीनं भगिनि. अतः तत्र पुत्राभ्यां विवाहः अभवत्, तदनन्तरं तत्र वणिक् दम्पति पुत्राभ्यां स्नुषाभ्यां च सह सुखेन कालं यापयतः इति द्विवचने अस्ति क्रियापदं. समीचीनं भगिनि. रघुवीर
महोदय,
वदतु भगिनि. नमस्कारः.
विवाह इति पदे महोदय वि इति उपसर्ग अस्ति चेत्, ल्यप् अस्ति चेत् विवाह्य भवितुम् अर्हति महोदय.
सत्यं सत्यं भगिनि, तत्र उपसर्गः अस्ति, किन्तु तत्र धातुः कः इति न जानामि. अस्तु, विवाह्य इति प्रायशः
समीचीनं महोदय,
तादृशं भवति इति मन्ये. सत्यं भगिनि.
अस्तु, धन्यवादः. सत्यं,
अस्तु. रवि महोदय नमस्कारः. तत्र भवतः पार्श्वे अपि स्वामी रघुवीरानन्द महोदय, भवतः पार्श्वे तत्र कथा अस्ति वा?
पूर्वं प्रेषितं तद्वा
तद् सा एव कथा महोदय, सा एव कथा. तत्र चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च इति, तत्र बालमोदिनी इति अस्ति खलु
महोदय,
सम्भाषणसन्देशस्य कथा
महोदय उद्घाटितं भवतः ईमेल् तः
उद्घाटितम् अस्ति. अस्तु महोदय, तत्र एव अस्ति, लिङ्क् अस्ति. अस्तु रवि महोदय, भवान् अपि प्राप्तवान् वा? अस्तु, न श्रूयते महोदय रवि महोदय. अस्तु अस्तु, तर्हि तत्र गतवर्गे किञ्चित् पठितवन्तः, तत्र अतः शीघ्रतया प्रथमभागं परिसमाप्य अग्रे गच्छामः. अस्तु, सूर्यकुमारी भगिनी अग्रे पठति वा तत्र?
महोदय, दुर्दैववशात् माधवस्य सुदिनानि समाप्तम् आसीत्.
सुदिनानि इत्युक्ते तत्र सम्यक् सुखदिनानि
समाप्तं, नष्टदिनानि
दुर्दिनानि
अभवत्
च सन्निहितानि, ते समीपम् आगतवन्तः तत् आगतवन्तः इति न, किन्तु तत्र आगतवत् इति अस्ति, दुर्दिनानि तत्र आगवत् आगवत् तव तु किमस्ति तत्र पठितवत् पठितवत् पठितवन्ति इति वा, या प्रायश तत्र वन्ति इति अस्ति, समीपम् आगतवन्ती इति. रघुपतिमहोदय सम्यक् वा तत्
महोदय?
तत्र शत्रन्तरूपं तत्र पठत् इति, तत्र नपुंसकलिङ्गे पठत् पठति पठन्ति इति खलु?
आमामाम् आम् महोदय.
अतः समीपम् आगतवन्ती,
आगतवन्तम् समीपं
नपुंसकलिङ्गं
आगतवती एव खलु महोदय, द्वितीय अपि
नपुंसकलिङ्गे अस्ति. नपुंसकलिङ्गे अस्ति, सत्यं. अग्रे भगिनि.
वाणिज्यार्थं
यद् अस्ति तत् पठतु, तत्र एकवारं पठतु.
वाणिज्यार्थं समुद्रमार्गेण गताः, तस्य नौकाः दस्युभिः लुण्ठिताः.
दस्युभिः, तत्र दस्युः तत्र उक्तवन्तः खलु, तत्र डेकाय्ड्स् इति. तेभिः लुण्टिताः, लुण्टिताः नौकाः लुण्टिताः तत्र दस्युः इति अस्ति. दस्युः इति तत्र पदस्य प्रथमविभक्ति बहुवचनरूपं किम् अस्ति? न न, दस्युभिः इति तृतीया अस्ति, किन्तु प्रथमविभक्ति बहुवचनं दस्युः इति एकवचने. इदानीं बहुवचने गुरवः दस्यवः. दस्यवः किं कृतवन्तः? नौकाः लुण्टिताः. पुनः तत्र लुण्टिताः इति एव रूपं भवति. किमर्थं तत्र दस्यवः नौकाः लुण्टिताः? हा, किन्तु इदानीं तत्र दस्यवः नौकाः लुण्टिताः आसन् इति अस्ति. आसन् इति क्रियापदं, दस्यवः इति कर्तृपदं, नौकाः इति कर्मपदम् अस्ति खलु इदानीं? हा, किन्तु समीचीनं वा रूपं नौकाः एव? न, नौका इति स्त्रीलिङ्गे, आकारं तु स्त्रीलिङ्गे अस्ति. तत्र लता, लते, लताः. इदानीं द्वितीयविभक्तौ किम् अस्ति? द्वितीयविभक्तौ लता, लते, लताः. द्वितीयविभक्तौ किम् अस्ति?
द्वितीयबहुवचनं नौकाः एव.
हा, अतः समीचीनमेव, तदेव रूपं भवति. नौकाः लुण्टिताः दस्युभिः, अथवा दस्यवः नौकाः लुण्टिताः, समानं. कर्तृप्रयोगः वा कर्मणि प्रयोगः वा, किन्तु तत्र नौकाः लुण्टिताः इति एव. अस्तु, अग्रे.
वाणिज्ये विनियुक्तः सर्वमपि मूलधनं नष्टम् अभवत्.
वाणिज्ये विनियुक्तं सर्वमपि मूलधनं नष्टम्
अभवत्. वाणिज्ये सम्पादयितुं धनं
तत्र, हा, तत्र सर्वं धनम् इदानीं गतम्, इदानीं नास्ति, यतोहि तत्र लुण्टिताः नौकाः सर्वे लुण्टिताः, सर्वाः नौकाः लुण्टिताः इदानीं. अतः
निर्धनः जातः.
हा, इदानीं सः इदानीं सः निर्धनः अस्ति. हा, निर्धनः जातः सः.
पुत्रौ स्वपत्नीभ्यां सह जीविकाम् अन्विष्यन्तौ दूरदेशं गतवन्तौ.
हा, तत्र किम् अन्विष्यन्तौ? जीविकां, जीवनस्य मार्गं, कथं जीवनं कुर्मः इति तस्य अन्वेषणं, तत्र मार्गं, किमपि मार्गः अपेक्षितः इति तं मार्गम् मार्गस्य अन्वेषणं कुर्वन्तौ अन्यत्र अन्यदेशं गतवन्तौ. ते गृहे एव स्तः.
गृहे स्थिताः सेवकाः अपि अन्यत्र गत्वा आश्रयं प्राप्तवन्तः.
अतः तत्र सेवकाः अपि इदानीं
माधवस्य सेवकाः अपि
अन्यत्र गतवन्तः.
अन्यत्र गत्वा आश्रयं
प्राप्तवन्तः, किन्तु तत्र किं कृतवन्तः अन्ये? तत्र सर्वे सेवकाः किं कृतवन्तः? माधवस्य गृहं त्यक्तवन्तः, अन्यत्र गतवन्तः. अस्तु, अग्रे.
इदानीं तु गृहे माधवः तस्य पत्नी राधिका चेति द्वौ एव.
केवलं द्वौ एव
वार्धककारणात् तौ किमपि कार्यं कर्तुम् अपि न शक्नुतः.
वार्धक्यम् इत्युक्ते तत्र भयः, वयसः
अधिकं
वर्धनात् वयः बहु अस्ति बहु अस्ति इति कृत्वा
कार्यं कर्तुं न शक्नुतः
शक्नुतः इति द्विवचने एकवचने किम् अस्ति
शक्नोति
शक्नोति शक्नुतः शक्नुवन्ति करोति कुरुतः कुर्वन्ति समीचीनं भगिनि अतः
अतः धनसम्पादनस्य मार्गः एव न आसीत्
तत्र पुनः तत्र धनसम्पादनस्य मार्गः इति स्थाने तत्र जीविकां जीविका एव नासीत् जीवनस्य मार्गः एव नासीत् तौ
बुभुक्षया पीडितौ कथमपि दिनानि यापयतः
तत्र पीडितौ तौ बुभुक्षया पीडितौ किन्तु कथमपि किन्तु बुभुक्षा अस्ति किन्तु अन्यत् अन्या गतिः नास्ति इति कृत्वा तत्र कथमपि दिनानि यापयतः तौ कौ तत्र माधवः राधिका माधवः तौ समीचीनं भगिनि अस्तु एतावत् यत् पठितं तत्र प्रश्नः अस्ति वा रघुवीरानन्दमहोदय अथवा रविमहोदय तत्र भूमिका इति स्थापितमस्ति तत्र अवगच्छन्ति वा तत्र माधवः कः राधिका कः इदानीं तयोः स्थितिः का इति रघुवीरानन्दस्वामी अवगच्छति वा रघुवीरानन्दमहोदय अवगच्छति वा तत्र तयोः स्थितिः का इति
तयोः स्थितिः तु
किन्तु तत्र भूमिकारूपेण इदानीम् अग्रे गच्छामः इति कृत्वा तत्र एतावत् पर्यन्तं सर्वम् अवगतं वा इति तावदेव प्रश्नः रविमहोदय प्रश्नः अस्ति वा तत्र न श्रूयते
महोदय अहं पूर्णं न पठितवान् अतः एव पूर्वभूमिका किम् इति न अहं
अतः प्रश्नः नास्ति अस्तु अन्तु
महोदय विषयान्तरम् अस्ति यत् भवती उक्तवती आसीत् गीता भगिनि विवाह्य इति भवति वा लेप् प्रत्ययः न भवति किमर्थम् इति धातुतः एव भवति खलु लेप् प्रत्ययः कृदन्तप्रधान
तत्र विवाह
विवाहं कृत्वा एव तत् विवाह्य इति न भवति लेप् प्रत्ययः न भवति विवाह इत्युक्ते तत् योग्यम् इति म्यारेजेबल्
कार्यं भाव्यम् इति तत्र क्रियापदं किम् अस्ति महोदय विवाहयति वा अथवा विवाहति वा तत्र
कुत्र
तत्र विवाहः कस्मात्
विवाहः
धातोः कृतं
वहदातो एव अस्ति वहदातोः एव गै प्रत्यय वाह इति भवति विवाहः इति
नामपदं
विवाहः नामपदं सत्यं सत्यं किन्तु तत्र तत्र क्रियापद
वाहयति वाहयति इति तद्भिन्नमस्ति खलु निर्जन्तपदमस्ति वाहयति अर्थं भिन्नं भवति
सत्यं सत्यं
विवाह इति तस्मिन् अर्थे न भवति
अस्तु अतः केवलं विवाहं कृत्वा इति एव भवति समीचीनं महोदय धन्यवादः
अस्तु महोदय धन्यवादः
गीतञ्जलि भगिनी इदानीं समाधानं प्राप्तम् अस्तु अग्रे तत्र रघुवीरानन्दस्वामी भवान् एव अग्रे पठितुम् इच्छति वा तत्र भगवान् इदानीं तत्र एकस्मिन् दिने इति आरभ्य
एकस्मिन् दिने माधवः स्वगृहे देवस्य पुरतः उपविष्टवान् आसीत् तदा सः भगवन्तम् उद्दिश्य आत्मस्मरेण उक्तवान् भगवन् कथं माम् एवं पीडयति भवान् किमर्थं मयि एतावान् निष्ठुरः अस्ति कृपया मम दुःखं दूरीकरोतु
अतः तत्र आर्तस्वरेण तत्र सः दुःखितः अस्ति इति कृत्वा तत्र तादृशस्वरेण सः भगवन्तम् उद्दिश्य उक्तवान्
प्रार्थितवान् महोदय एतत् प्रार्थना नास्ति
किन्तु सत्यं महोदय किन्तु तत्र किमर्थम् इति सः पृच्छति अस्तु
तद्वर्गे एतावान् विषये चर्चितवन्तः एतावान् तव तु पुल्लिङ्ग निष्ठुरः पुल्लिङ्ग चेत् एतावान्
विशेषणं समीचीनं भगिनि सत्यं तत्र यावत् तावत् इति जानीमः खलु तावत् इति तत्र यावत् यावत् इति तत्र तत्र किं सूचयति तत्र क्वाण्टिटि इति तत्र तावत् देट् मच् इति अत्र एताभान् इति धिस् मच् इति अर्थे तवतु नास्ति एतावत् एतावत् एतावान् तवतु नास्ति सत्यं सत्यम् एतावत् एतावान् एतावती इति श्रीलिङ्गे किन्तु तत्र अर्थः तवतु न
रूपा तादृश भवति हलत्तानां सर्वत्र तादृश भवति
कृतवान् इति तादृश अस्ति
महान् इति एतावत् एतावान्
महोदय तत्र एतावान्
एतावत् आं महोदय चिन्तयामि एतावत् खलु तावत् नास्ति एतावान् नास्ति खलु एतावान् इति तवत् इति किम् अस्ति तत्र तवत् इति प्रत्यय महोदय निष्ठप्रत्यय अस्ति तत् भूतकालात् एव भवति भूतकालात् किमपि नास्ति खलु
भूतकालप्रत्यय
भूतकालात् एव भवति खलु
एतावान् सत्यं भूतकालार्थः नास्ति
रूपाणि तादृशं भवति परन्तु
किं भगिनि
तव तु काल नास्ति महोदय
न तव तु इत्युक्ते तत्र कृत्वा इति
निष्ठा इति
कृतवान्
विशेषण अस्ति क्रियाविशेषणम् अस्ति कृदन्तम् अस्ति अत्र विशेषणस्य न भवति परन्तु कालः सूचयति खलु भूतकाल कालं सूचयति खलु
अस्ति अस्ति आसीत् भविष्यति उपयुज्यते
अस्तु भगिनि अत्र एतावान् इति तत्र मतु वा तवतु वा इति अस्तु
चिन्तयामि
अस्तु अस्तु भगिनि अतः तत्र किञ्चित् परिशीलयामः
तस्मिन् अर्थे भवति तवतु अहं सम्यक् जानामि तवतु ताक् तवत् निष्ठा इति इत्य भवति तवत् इत्यस्य गतवान्
न
भवति न भवति एव
किन्तु तत्र अतः तत्र एतावत् तत्र यावत् तावत् इति तत्र तत्र तस्य पदस्य निर्माणं कथम् इति किञ्चित् अन्वेषणम् अपेक्षितम् अस्ति महोदय तत्र अर्थः जानीमः किन्तु तत्र
भूतकालार्थः नास्ति तवत् नास्ति जानामि परन्तु कथम् इति अत्र
सिद्धं किञ्चित् अन्वेषणं कुर्मः
तावत्तु धातु कृत् प्रत्ययमध्ये एव भवति खलु
आम् तर्हि एतत् केन भवति क्रियापदमस्ति वा अत्र धातु अस्ति वा एतत् इति एतत् इति अस्ति एतत् इति क्रियापदं वा धातु वा नास्ति खलु केन धातु न भवति तत् नास्ति खलु अतः न भवितुमर्हति एव.
अस्तु,
किन्तु तत्र मतुप् इति कस्मिन् अर्थे भवति इति तत्र तदपि किञ्चित् अन्वेषणं करणीयमस्ति.
अत्र एतावान् बलवान् यथा बलवान् इति.
हा सत्यं भगिनि, सत्यं सत्यं, तत्र यावत् यावान् बलवान् भीमः अस्ति तावान् बलवान् तत्र मम सहोदर अथवा मम मित्रः मित्रं नास्ति इति.
हा
समीचीनं, किन्तु तत्र हा तदेव अस्ति, किन्तु तत्र मतुप् इति
एतावत् इति अत्र त्रिषु लिङ्गेषु भवति.
हा सत्यं, अतः तत्र किञ्चित् किञ्चित् अधिकं यदि अवगच्छामः समीचीनं भवति इति तावदेव. तावदेव एतावत्
सिद्धान्तं तु नास्ति तदितव्यं.
हा
तत् जन.
अस्तु महोदय, धन्यवादः. अस्तु रघुवीरन्द्र महोदय, इदानीं तत्र अग्रे भगवान् माधवस्य
भगवान् माधवस्य प्रार्थनां कृतवान्. सः तं परीक्षितुं ब्राह्मणवेषं धृत्वा तत्र आगतः. ब्राह्मणः माधवम् उक्तवान्, भो माधव मया सह आगच्छतु. माधवः आशाभावनया तं ब्राह्मणम् अनुसृतवान्. ब्राह्मणः तं निर्जनम् अरण्यं नीतवान्.
अत्रापि कोऽपि प्रश्नः अस्ति वा? सर्वे स्मरन्ति इति मन्ये, अतः तत्र प्रायशः प्रश्नः नास्ति इति मन्ये. अस्तु रघुवीरानन्दस्वामी, भवतः प्रश्नः नास्ति खलु एतावत्?
न महोदय, सर्वं बुद्धं महोदय.
अतः अग्रे भवानेव पठतु महोदय.
अरण्ये एकत्र अनेकाः पेटिकाः स्थिताः आसन्. ताः पेटिकाः दर्शयन् ब्राह्मणः माधवम् उक्तवान्, एताः सर्वाः दुःखपेटिकाः सन्ति इति. माधवः आश्चर्येण ताः पृष्टवान्.
इदानीं तत्र पेटिकाः पतिताः आसन्, तत्र पेटिकाः पतिताः आसन् तत्र विभक्तिः का महोदय?
पेटिकाः पतिताः
आसन्.
पेटिकाः तु बहुवचनं,
प्रथमा बहुवचनं
महोदय.
समीचीनं. हा अग्रे इदानीं ताः पेटिकाः दर्शयन् इति, तत्र विभक्ति का?
तत्रापि पेटिका अतः स्त्रीलिङ्ग बहुवचन प्रथम.
हा किन्तु दर्शयन् इति अस्ति, अतः किं दर्शयन् इति भवति, अतः कर्मपदमस्ति तत्र. ब्राह्मणः दर्शयन् उक्तवान्, ब्राह्मणः किं दर्शयन् उक्तवान्.
बहुवचनमपि तथैव वा?
हा स्त्रीलिङ्गे लता लते लतः, लतां लते लताः.
अतः सत्यं,
अतः तत्र पेटिकाः द्विवारम् आगच्छति, किन्तु प्रथमवाक्ये प्रथमाविभक्ति, द्वितीयवाक्ये द्वितीयाविभक्ति, तावदेव. अस्तु, अतः तत्र पेटिकाः कर्मपदं दर्शयन् ब्राह्मणः माधवम् उक्तवान्. हा एताः कीदृशाः?
दुःखपेटिकाः
सर्वे, सर्वाः दुःखपेटिकाः सन्ति तत्र. पेटिकाः दुःखपेटिकाः सन्ति. तद् श्रुत्वा माधवः आश्चर्येण इदानीं ताः दृष्टवान्, पुनः ताः इति कर्मपदं, ताः पेटिकाः. किं दृष्टवान् माधवः? ताः पेटिकाः दृष्टवान्, दृष्टवान् इति.
महोदय दुःखपेटिका इति षष्ठी तत्पुरुष समासः वा?
दुःखस्य अथवा दुःखैः पूर्णाः पेटिकाः इति खलु तत्र. दुःखैः दुःखेन पूरितं, पूरिता पेटिका इति प्रायशः भवति इति मन्ये.
दुःखेन पूरिता वा?
यतोहि पेटिकायाः अन्ते दुःखम् अस्ति अथवा हा
तदेव समीचीनं भवति.
हा अतः तत्र
दुःखस्य पेटिका इति समीचीनं न
प्रायशः षष्टि अपि वक्तुं शक्नुमः, किन्तु तत्र अन्ते दुःखः दुःखम् अस्ति इति तद् तत्र किं तत्र स्थालिका अस्ति सुवर्णेन पूरिता स्थालिका अपि सुवर्णस्थालिका, भेदः कः?
ओ हा, अन्ते सुवर्ण आयाति अपि च अन्य सम्पूर्णस्थालिका सुवर्ण.
स्थालिका कीदृशी इत्युक्ते तत्र सुवर्णेन रचिता कृता स्थालिका एका
एका
स्थालिका सुवर्णेन रचिता, किन्तु अन्या स्थालिका सुवर्णेन पूरिता स्थालिका. अत्र तु प्रायशः तत्र दुःखेन पूरिता पेटिका इति
अर्थम् अवलम्ब्य भवति. दुःखस्य पेटिका इत्युक्ते किमपि अर्थः न
भवति, किन्तु तत्र अन्यत्र तदपि भवितुम् अर्हति. यत् तत्र सुवर्णस्थालिका इति तत्र सुवर्णेन पूरिता वा अथवा सुवर्णेन कृता स्थालिका वा तत्र अर्थभेदः अस्ति.
दुःखस्य पेटिका अपि अर्थः तु भवति,
किन्तु अत्र 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 तु दुःखेन पूरिता इति पूरिता इति
किमपि सम्बन्धः नास्ति खलु महोदय. दुःखस्यापि पेटिकया सम्बन्धः किमपि तादृश विशेषार्थः न बोध्यते, अतः दुःखस्य पेटिका इति केन षष्टिविभक्ति भवति, परन्तु सम्बन्धः केन किं सम्बन्धः कः तत्र किमपि नास्ति खलु. दुःखस्य पेटिका इति दुःखं दुःखेन पूरिता पेटिका तदेव समीचीनं भवति.
हा तत्र अन्य भवति अन्यः कः अर्थः चिन्तयति न दुःखेषु अथवा दुःखेषु न दुःखेषु पूरिता नास्ति, दुःखेन अथवा दुःखैः पूरिता. दुःखेषु इति इत्युक्ते तत्र दुःखे एषा पेटिका अस्ति इति खलु. तत्र यत्र अस्ति तत्र सप्तमी, यत्र गृहे बालकः अस्ति, बालकः कुत्र अस्ति, गृहे अस्ति. दुःखेषु इत्युक्ते पेटिका कुत्र अस्ति, दुःखेषु अस्ति इति दुःखैः पूरिता इति अस्तु.
दुःख एव पेटिका यस्य सः दुःखपेटिका तदस्ति बहुभि.
अस्तु अग्रे रविमहोदय पठति वा. तत्र ब्राह्मणः एकां रिक्ताम् इति
एकां रिक्तां पेटिकाम् उन्नीय ताम् उद्घाटितवान्.
तत्र पूर्णपरिच्छेदं पठतु महोदय. तत्र ऊढवान् इति तावत् पर्यन्तं
ततः माधवम् अहम् इदानीं भवतः सर्वाणि अपि दुःखानि अत्र निक्षिपामि इति उक्त्वा इतस्ततः हस्तचालनं कृत्वा पेटिकां पिहितवान्. तां पेटिकां माधवस्य शिरसि धारयन् उक्तवान् एषा भवतः दुःखपेटिका इति. माधवः अहो भारः इति वदन् महता कष्टेन कथमापि ताम् ऊढवान्
इति तावत् पर्यन्तम्. अस्तु महोदय, इदानीं पङ्क्तिशः पश्यामः. ब्राह्मण
एक रिक्तपेटिकां
स्वीकृत्य एकां रिक्तां पेटिकां स्वीकृत्य तत्र ताम् उद्घाटितवान् इति स्थाने उद्घाटनं कृतवान् इति अस्ति चेत् तत्र किं भवति? ताम् उद्घाटितवान् अथवा तां पेटिका इति स्त्रीलिङ्गे अस्ति अतः ताम् इति भवति. ताम् उद्घाटितवान् उद्घाटनं कृतवान् तत्र द्वारम् अस्ति. द्वारम् उद्घाटितवान् अथवा उद्घाटं कृतवान् इति अस्ति चेत् तस्य तस्मात् पूर्वं किं भवति? उद्घाटनं कृतवान् इति अस्ति चेत् तत्र षष्ठी भवति,
षष्ठी भवति,
षष्ठी तत्र द्वारस्य उद्घाटनं कृतवान्। इदानीं तत्र पेटिका इति पेटिकायाः उद्घाटनं कृतवान् ब्राह्मणः। अग्रे
ततः माधवम्
माधवम् उक्तवान् ततः माधवं सः माधवं
माधवम् उक्तवान् उक्तवान् अहं माधव ब्राह्मण माधव माधवस्य सर्वाणि दुःखानि तत्र
निक्षिप्तवान् तत्र
निक्षिप्तवान्
कुत्र निक्षिप्तवान्? पेटिकायां निक्षिप्तवान्। तत्र रिक्तां पेटिकां रिक्ता पेटिका इति अस्ति अतः रिक्तायां पेटिकायां निक्षिप्तवान्
निक्षिप्तवान्
अग्रे अपि पेटिकां किं कृतवान्? सः पिहितवान् तत्र पूर्वम् उद्घाटितवान् पेटिकायाः उद्घाटनं कृतवान् इदानीं तत्र पेटिका पिहितवान्। अग्रे
ततः पेटिकां माधवस्य शिरसि निधा
शिरस्ति सकारान्तपदं खलु शिरस् शिरः शिरसि शिरा शिरांसि इति मन्ये खलु
शिरसि धारयतु इति उक्तवान्
तत्र धारयन् शिरसि धारयन् कुत्र स्थापितवान् तत्र शिरसि स्थापितवान् पेटिकां माधवस्य शिरसि स्थापयित्वा उक्तवान् किम् उक्तवान्
एषः भवतः दुःखपेटिका
एषा पेटिका भवतः दुःखपेटिका इति तत्र पेटिका कीदृशी आसीत् तत्र किन्तु तत्र भारः इति तत्र
अतिभारः
अतः माधवः किं वदति
अहो भारः
इति सः वदति तत्र तत्र लघुः इति अपि तत्र वदामः तत्र यत्र भारः नास्ति अथवा तत्र अलघु इति तत्र यत्र भारः अस्ति अथवा तत्र गुरुः इति अपि तत्र पदं भवति तत्र गुरुः इत्युक्ते तत्र हेवि अथवा डिफिकल्ट् इति अर्थे अपि अस्ति अतः गुरुः तत्र भारं सूचयति तत्र अत्र गुरु अत्र भारः अत्र तत्र तु
अत्यधिकभारः अस्ति
इति कृत्वा इति उक्त्वा सः किं कृतवान् तत्र कष्टेन
कष्टेन
तत्र पूढवान् तत्र तस्य वहनं कृतवान् तत्र तत्र शिरसि स्थापितवान् शिरसि एव अस्ति इदानीमपि तत्र तत्र पेटिका माधवस्य शिरसि एव इदानीमपि अस्ति। समीचीनं महोदय, धन्यवादः। अस्तु अग्रे रघुपति महोदय।
क्षम्यतां महोदय, किञ्चित् भ्रमः जातः तत्र पिहितवान् तत्र दत्तम् अहम् इदानीं भवतः सर्वाणि अपि दुःखानि अत्र निक्षिपामि तत्तु ब्राह्मण उक्त्वा इति उक्त्वा इतस्ततः हस्तचालनं कृत्वा पेटिकां पिहितवान् इत्युक्ते कस्य पेटिकाम् इत्युक्ते माधवस्य पेटिकां पिहितवान् वा?
सत्यं सत्यं माधवस्य पेटिकां तत्र रिक्ता एका रिक्ता पेटिका अस्ति तां पेटिकां स्वीकृत्य तत्र सर्वाणि माधवस्य सर्वाणि दुःखानि पेटिकायां स्थापयित्वा निक्षिप्य सः पेटिकां पिहितवान्।
अस्तु अस्तु अस्तु।
अतः इदानीं तत्र सर्वाणि दुःखानि, माधवस्य सर्वाणि दुःखानि पेटिकायां सन्ति।
माधवस्य पुरतः एव सर्वं कृतवान्।
सत्यं सत्यम्।
उत्तमम् उत्तमं, तदेव तदेव। अस्तु
समीचीनम्। अस्तु अस्तु, अग्रे महोदय।
हा महोदय, क्षणान्तरं सः ब्राह्मणः माधवस्य मस्तकतः पेटिकाम् अवतार्य उक्तवान्, भवान् स्वदुःखभारं वोढुं न शक्नोमि इति रोदिति खलु, अतः अहम् एकम् उपायं सूचयामि। अत्र स्थितासु पेटिकासु यां कामपि लघ्वाकारिकां अल्पभारयुतां वा पेटिकां भवान् स्वपेटिकाविनिमयेन स्वीकर्तुम् अर्हति, तेन भवतः दुःखभारः न्यूनः भवति इति। अत्र क्षणाभ्यन्तरे सः ब्राह्मणः माधवस्य मस्तकतः, इदानीं महता कष्टेन तत् माधवः तां पेटिकाम् ऊढवान् अस्ति इदानीं, अतः सः वदति इदानीं कष्टम् अनुभवति, अतः सः ब्राह्मणः माधवस्य मस्तकतः पेटिकाम् अवतार्य अवतार्य
अवतरति अवतरणं
अवतरणं कृत्वा अवदत्, भवान् स्वदुःखभारं वोढुं न शक्नोमि इति रोदिति खलु, भवान् इदानीं रोदनं कुर्वन्नस्ति, स्वस्य इदानीं पेटिका बहु भारम् अस्ति अत्र, अतः रोदिति खलु, अतः अहम् एकम् उपायम् सूचयामि। अत्र स्थितासु पेटिकासु यां कामपि लघ्वाकारिकम् आमां अत्र समासः अस्ति, लघ्वाकारिकम् अल्पभारयुतां वा पेटिकां भवान् स्वीकर्तुम् अर्हति स्वपेटिकाविनिमयेन, स्वस्य पेटिकां
चिन्तयित्वा स्वीकर्तुम् अर्हति। तत्र अनेकाः पेटिकाः सन्ति तत्र, किन्तु तासु तत्र स्थितासु पेटिकासु कामपि
न्यूनभारयुतं भारयुता पेटिकां स्वीकरोतु,
तत्र अल्पभारः तत्र तस्य पेटिका तु तत्र बहु भारवती आसीत्, किन्तु तत्र अल्पभारयुता पेटिका,
मम पेटिका बहु भारयुता,
इदानीं तत्र अल्पभारयुता पेटिका यदि अस्ति तां पेटिकां माधवः स्वीकर्तुं शक्नोति अर्हति, तत्र कर्तुं शक्नोति तेन यदि सः करोति। वदतु भगिनि
महोदय, तत् अल्पभारयुताम् इति कीदृशपदं?
युता युक्ता, तत्र भारः भारः युता युक्ता युता 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 इत्युक्ते तत्र तस्मिन् अस्ति, तत्र कीदृश तत्र भारः यः भारः पेटिकायाम् अस्ति सः भारः कीदृशः इत्युक्ते अल्पभारः, अतः अल्पभारयुक्ता पेटिका सा अस्ति।
अस्तु अस्तु अस्तु, प्रत्यय महोदय
युक्त युक्त इति रूपम् अर्थः अत्र युत इति युत इति
कथं युता भवति न अवगतम्।
हा किन्तु तत्र प्रत्ययस्य नियमः न जानामि भगिनि, किन्तु तत्र युत इत्युक्ते तत्र किं केन युक्तः इति।
अस्तु भारेण युक्ता
हा किन्तु अत्र अल्पभारेण युक्ता पेटिका
अस्तु अस्तु अवगतं धन्यवादः
अपि आकारिका आकारः पेटिकायाः आकारः लघु इति अतः लघ्वाकारिका पेटिका अल्पभारयुता पेटिका या कामपि कापि अस्ति तां पेटिकां माधवः स्वीकर्तुं शक्नोति हा तेन इत्युक्ते महोदय हा
तेन
तेन इत्युक्ते
तेन तेन भवतः दुःखभारं न्यूना भवति अल्प तेन इत्युक्ते अत्र तेन कार्येण इति वा
तेन कार्येण तेन स्वीकरणेन
तेन स्वीकरणेन
अल्पभारयुता
पेटिका पेटिकाया स्वीकरणेन
अल्पभारयुतायाः पेटिकायाः स्वीकरणेन भवतः न्यूनः भवति इति अस्तु महोदय अग्रे अपि किञ्चित् पठति वा
अस्तु अस्तु महोदय एकवारम् अस्तु अग्रे अग्रे एतत् श्रुत्वा माधवः अतीवसन्तुष्टः जातः सः झटिति तत्र स्थितासु पेटिकासु कामपि लघुपेटिकां गृहीतुम् उद्युक्तः अभवत् परं तस्य आश्चर्यम् अभवत् यतः सा पेटिका अतीवभारयुताः आसीत् अत्र इदानीं ब्राह्मणस्य वचन ब्राह्मणस्य वचनेन माधवः सन्तुष्टः जातः इत्युक्ते इदानीं तस्य कष्टानि किञ्चित्
तस्य परिहारः भवेत् इति
लघ्वीकर्तुं शक्नोति चिन्तितवान् अतः सः कामपि पेटिकां लघुपेटिकां गृहीतुम् उद्युक्तः अभवत् परन्तु तापि पेटिका क्षम्यतां तापि पेटिका भारयुता
तत्र स्थितासु पेटिकासु कामपि लघुपेटिकां गृहीतुं तत्र अनेकाः पेटिकाः सन्ति किन्तु सः एकां लघुपेटिकां दृष्टवान् अपि तस्य तं ग्रहीतुं तां ग्रहीतुम् उद्युक्तः
उद्युक्तवान् उद्युक्तवान् परन्तु सा पेटिका अपि भारयुतः भारयुता आसीत्
हा तत्र परम् इत्युक्ते परन्तु तस्य आश्चर्यम् अभवत् यतः सा पेटिका अपि अतीवभारयुता आसीत् हा लघु आसीत् किन्तु लघु आकारिका आसीत् किन्तु अतीवभारयुता आसीत्
भारयुता आसीत्
अतः अग्रे सः किं कृतवान्
अतः ततः सः अन्याः अपि लघु आकारिकाः पेटिकाः उत्थाप्य परिशीलितवान् लघुभारयुक्ता पेटिका अस्ति वा इति तत्र दृष्टवान् परं ताः अपि ततोपि भारयुताः एव आसन्
तत्र पुनः महोदय तत्र आकारिकाः पेटिकाः उत्थाप्य तत्र विभक्तिका तत्र
आकारि लघु उत्थाप्य इति अस्ति अतः तत्र उत्थापनं कृत्वा इति सोरि कर्मपदमस्ति अतः आकारिकाः पेटिकाः
इति
अत्र कर्मपदमस्ति द्वितीय बहुवचनं भवति ताः अपि ततः अपि भारयुताः एव आसन् इति अस्ति
ततः इत्युक्ते तत्र ततः इत्युक्ते
कुत्र महोदय परं ताः अपि ततः अपि तस्मात् अपि ततः अपि ततोपि इति अस्ति खलु
हा किन्तु तत्र किन्तु किमर्थं तत्र
विसर्गः अस्ति खलु ततः अपि भारयुते एव आसन् ततोपि इति ततः अपि विसर्गसन्धिः भवति ओ उकार भवति अनन्तरं तस्मादपि इति अस्ति तस्मादपि इति
ततोपि सत्यं
तस्मादपि इति पञ्चमी अस्ति तस्मादपि भारयुताः
अत्र पूर्वं या पेटिका आसीत् तत्र तस्याः पेटिकायाः कृते एषा पेटिका अतीव अपेक्षया तत्र अतीव भारयुता आसीत् अथवा तत्र पेटिकाः भारयुताः आसन्। समीचीनं महोदय। ततोपि
युता इति महोदय तत्र यु इति मिश्रणे इति अदादिगणे धातुः अस्ति, यु इति मिश्रणं टु मिक्स् टु जायिन्।
अस्तु अस्तु,
युता प्रत्यये एव अस्ति युतः इति,
युतः अतः तत्र मिश्रणं तत्र अतः तत्र केवलम् एकस्मिन् तत्र भारः केवलम् एकस्मिन् देशे अस्ति इति न खलु, पेटिकायाम् एकस्मिन् किन्तु भारः सर्वत्र अस्ति इति तत्र अतः मिश्रणम् इति। अस्तु महोदय, धन्यवादः, समीचीनम्। अस्तु धन्यवादः महोदय। अग्रे तत्र गीताञ्जलि भगिनी अग्रे पठति वा?
आम् महोदय।
अन्ततो गत्वा
तेन एतत् अनुभूतं यत् स्वस्य पेटिका एव सर्वाभ्यः पेटिकाभ्यः अल्पभारयुता इति। अतः सः एकनिमिषं महोदय, तामेव पेटिकाम् आलिङ्कृतवान् आलिङ्गितवान् अग्रे पठामि वा महोदय?
किन्तु एतत् पतिः उक्त्वा अग्रे पठतु।
अस्तु अस्तु, अन्ततो गत्वा इत्युक्ते कानि
सर्वाः पेटिकाः,
सर्वाः पेटिकाः भार भारयुताः
सन्ति, तत्र भारयुताः इति इति दृष्ट्वा अथवा परिशील्य
परिशील्य माधवः इति अवगतवान् अपि सः स्वस्य पेटिका एव
अल्पभारयुता अस्ति
इत्युक्ते लैटेस्ट्।
सत्यं सत्यम्, अल्पभारयुता तत्र तर इति अल्पभार युततमा
अल्पभारयुततम
वा
महोदय
इति सत्यं महोदय?
आमाम्, अनेकेषु एक तम इति भवति, द्वौ अस्ति चेत् तर तर
तम इति, तत्र अनेकाः पेटिकाः सन्ति।
युतातम वा युतातर
भारयुत भारयुत तम तत्र
भार
युततम अथवा भारतम अपि तत्र प्रायशः वक्तुं शक्नुमः इति मन्ये, तत्र अल्पभारतम इति तदपि प्रायशः भवितुम् अर्हति, किन्तु यदस्ति तस्य यदस्ति तत्र भारयुता पेटिका, अतः तत्र तासु पेटिकासु भारयुततमा पेटिका अल्पभारयुततमा पेटिका तस्याः तस्य अस्ति
इत्युक्ते माधवः अवगतवान् स्वस्य पेटिका एव अल्पभारयुततमा आसीत्।
हा इति सत्यं भगिनि,
इति अतः सः तामेव
तत्र सर्वाभ्यः पेटिकाभ्यः इति तत्र विभक्ति का
सर्वाभ्यः पेटिकाभ्यः
चतुर्थी अथवा पञ्चमी इति रूपं दृष्ट्वा चतुर्थी वा पञ्चमी वा, किन्तु अर्थं दृष्ट्वा
स्वस्य पेटिका एव पञ्चमी एव
पञ्चमी एव तत्र तत्र सर्वाभ्यः पेटिकाभ्यः तत्र पृथक् करोति, तत्र सर्वाभ्यः पेटिकाभ्यः पृथक् अस्ति तस्य
पेटिका
तुलना तत्र तुलना अस्ति चेत् तत्र अपेक्षयति अस्ति चेत् तत्र षष्ठी भवति किन्तु अपेक्षयति नास्ति
तत्र
भेदः अस्ति इति अतः पृथक् इति पृथक् इति
पृथक् करोति सम्यक्
अतः
पञ्चमी
एव इति तत्र पञ्चमी अर्थे अस्ति अतः तस्य पेटिका एव अल्पभारयुता अस्ति
अस्ति तदनन्तरं माधवः स्वस्य पेटिकाम् आलिङ्गितवान् इत्युक्ते आलिङ्गितवान् इत्युक्ते एम्ब्रेस्ड् इत्युक्ते
हा हा आलिङ्गनं आलिङ्गनं कृतवान् हा एषा पेटिका एव तत्र समीचीना अस्ति इदानीं तत्र मह्यम् अन्याः पेटिकाः न
स्वीकरोमि
हा रोचन्ते तत्र रोचते रोचन्ते हा न रोचन्ते अन्याः पेटिकाः मह्यं न रोचन्ते इति सः चिन्तितवान्
मह्यं न रोचते
रोचन्ते
रोचन्ते इति पदं तु किञ्चित् तत्र किञ्चित् प्रेम अस्ति
सत्यं भगिनि सत्यं पूर्वं तत्र किं तत्र अहम् एतां पेटिकां न इच्छामि इदानीम् ओ एषा एव पेटिका सत्यं भगिनि तत्र परिवर्तनं मनसि परिवर्तनम् अभवत् सत्यं भगिनि
अपि भवति अपि इति दर्शयति वयं स्वस्य दुःखम् अपि आलिङ्गितवान्
हा करणीयम् इति अस्तु हा सत्यं भगिनि सत्यं हा
तदा सः ब्राह्मणः उक्तवान् किमिदं भोः अन्या कापि पेटिका भवेत् न रोचते वा भवते न रोचते वा शीघ्रं यां कामपि पेटिकां स्वीकरोतु इति तदा इत्युक्ते यदा माधवः स्वस्य पेटिकाम् आलिङ्गितवान् तदा ब्राह्मणः उक्तवान् किम्
किम् इदं विचित्रम् अस्ति तत्र
अहं न अवगतम् इत्युक्ते किम्
अभवत् किम् अभवत् किमर्थं भवान् स्वस्य पेटिकामेव पुनः स्वीकृतवान् इति अन्यां कामपि पेटिकां लघ्वाकारिकां पेटिकां किमर्थं भवान् न स्वीकृतवान्
किमर्थं न स्वीकृतवान् शीघ्रं यां कामपि पेटिकां स्वीकरोतु इत्युक्ते यां कामपि इत्युक्ते विना भेदविना यां
तत्र अनेकाः पेटिकाः सन्ति तत्र तासु कामपि चिनोतु इति
तासु कामपि चिनोतु किमर्थं
केवलं स्वस्य एव स्वीकृतवान् इति मामकभावः किमर्थम् इति
मामकभावः समीचीनं महोदय
तत्र मामक इत्युक्ते केवलं मम पेटिका इति अर्थे किमर्थं केवलं भवतः पेटिका इति एव भवते रोचते किमर्थम् अन्या पेटिका भवते न रोचते इति समीचीनं भगिनि तत्र आलिङ्गितवान् बहु समीचीनम् आसीत् तत्र अस्तु अग्रे इदानीं सूर्यकुमारी भगिनि अग्रे
माधवः विनयेन ब्राह्मणं नमस्कुर्वान् उक्तवान् भो महात्मन् अत्र मम पेटिका एव अल्पभारयुता अस्ति अन्याः सर्वाः इतोपि गुरुतमाः वा सन्ति तेन भवतः सन्देशः मया अवगतः अस्ति यत् स्वस्य दुःखमेव अधिकम् इति कदापि अस्माभिः चिन्तनं न करणीयम् अन्येषाम् इतोपि अधिकानि दुःखानि भवन्ति एव इति.
समीचीनं भगिनि. इदानीं माधवः
ब्राह्मणं नमस्कृत्य उक्तवान्.
तत्र नमस्कृत्य उक्तवान् न, नमस्कुर्वन् उक्तवान्.
नमस्कुर्वन् उक्तवान्.
नमस्कुर्वन् तत्र नमस्कारं कुर्वन् अस्ति, तस्मिन्नेव समये सः वदति
विशेषणं.
उक्तवान् इति विशेषणं. ब्राह्मणम् उक्तवान्. ब्राह्मणम् इति कर्मपदं. कम् उक्तवान्? ब्राह्मणम् उक्तवान्. किम् उक्तवान्? भोः
महात्मन्
सम्बोधनम्.
अत्र मम पेटिका एव अल्पभारयुता अस्ति.
अत्र अनेकाः पेटिकाः सन्ति, किन्तु एतासु पेटिकासु
मम एव अल्पभारम्
अस्ति. मम पेटिकायाः एव अल्पभारः अस्ति. मम पेटिकायाः एव अल्पभारः अस्ति.
अन्याः गुरुतराः गुरुतमाः वा सन्ति?
गुरुतरा पेटिका इत्युक्ते तत्र अन्या पेटिका अस्ति, तत्र इतोपि तत्र तस्याः भारः अस्ति. अतः गुरुतरा पेटिका अथवा गुरुतमा पेटिका. तत्र सर्वासु पेटिकासु यस्याः पेटिकायाः भारः अधिका अस्ति, सर्वाधिका अस्ति, सा पेटिका गुरुतमा इति.
गुरुतमाः सन्ति,
गुरुतराः सन्ति अथवा गुरुतमाः एव अन्याः पेटिकाः सर्वाः सन्ति. अतः तेन
एतेन भवतः सन्देशः मया अवगतः अस्ति.
इदानीं तत्र एतेन भवतः सन्देशः मया अवगतः अस्ति. तत्र भवतः सन्देशः मया अवगतः इति तत्र कर्तृरूपं वदतु. अहं
भवतं सन्देशं
न भवतः भवतः
भवतः सन्देशम् अवगतवान्.
समीचीनं भगिनि. अवगतवान्. समीचीनं.
क्षम्यतां महोदय. तत्र गुरुतमा तु इत्युक्ते एकमेव भवति चेत् न भवितुमर्हति. तम इत्युक्ते मोस्ट्.
सत्यं सत्यं. किन्तु तत्र तम इति तत्र चिन्तयतु भगिनि, तत्र केवलम् एका एव पेटिका गुरुतमा भवितुम् अर्हति इति न खलु?
किन्तु बै डेफिनिशन्
न सत्यं भगिनि. न किन्तु बै डेफिनिशन् इति न वक्तुं शक्नुमः, यतोहि तत्र चिन्तयतु, तत्र किं तत्र पेटिका द्वयम् अस्ति यस्य भारः समानः अस्ति, अपि अधिकः अस्ति. सर्वाभ्यः
इत्युक्ते स्वस्य
पेटिका न भगिनि, तत्र गुरुतमाः इति भवत्याः प्रश्नः अस्ति. तत्र गुरुतराः इति बहुवचने भवितुम् अर्हति, किन्तु गुरुतमाः बहुवचने न भवितुम् अर्हति इति प्रश्नः वा?
आं महोदय, तदेव मम प्रश्नः
खलु. इदानीं तत्र चिन्तयतु, तत्र किलोग्राम्स् इति चिन्तयामः, तत्र अधिकाः पेटिकाः तत्र पेटिकाद्वयम् अस्ति ययोः तत्र किं गुरुत्वं 10 किलो अस्ति इति चिन्तयतु. अन्याः पेटिकाः सर्वे तत्र न्यूनाः एव, 9 वा 8 वा इति. किन्तु इदानीं गुरुतमा पेटिका एका अस्ति वा अथवा पेटिकाद्वयम् अस्ति वा गुरुतमा? पेटिकाद्वयमस्ति दश किलो तत्र गुरुत्वम्
अस्तु इत्युक्ते यदा समानेव भवति चेत् तु द्वे अपि गुरुतम
इति
अस्तु
खलु
अत्र
अतः तत्र गुरुतमाः इति तत्र गुरुतराः इति अनेकाः सन्ति गुरुतमाः इति काचन एव तत्र भवितुम् अर्हन्ति किन्तु तत्र एकवचने एव इति नास्ति इति तावदेव
इक्वलि हेवियस्ट् वन्
सत्यं सत्यम् अस्तु सूर्यकुमारी भगिनी अग्रे
ब्राह्मणः माधवः उक्तवान्
सन्देशः कः सन्देशः अवगतः इति मया अवगतः इति अतः सन्देशः कः तत्र स्वस्य
स्वस्य पेटिका
न स्वस्य दुःखमेव स्वस्य दुःखमेव
दुःखम् एव अल्पमस्ति अन्याः
न तत्र सन्देशम् एकवारं पठतु तत्र स्वस्य मया अवगतः अस्ति यत्
अवगतः अस्ति यत् स्वस्य दुःखमेव अधिकम् इति कदापि अस्माभिः चिन्तनं न करणीयम्
अस्माभिः किं चिन्तनं न करणीयं कदापि अस्माभिः चिन्तनं न करणीयम् अस्माभिः चिन्तनं न करणीयम् इति स्थाने वयं स्वस्य दुःखमेव अधिकम् इति कदापि चिन्तनं
न करणीयम्
तत्र वयं न करणीयं न करणीयम् इति तत्र करणीयं तु तत्र तृतीया विभक्तौ एव भवति कर्मणि रूपमेव भवति तत्र न चिन्तयामः
न चिन्तयामः
अग्रे अन्येषाम्
अन्येषाम् इतोप्यधिकानि दुःखानि भवन्ति एव इति
तत्र अन्येषां जनानाम् इतोपि अधिकानि दुःखानि इतोपि अधिकानि तत्र मम दुःखम् अधिकम् अस्ति किन्तु तत्र इतोपि अधिकं अधिकानि दुःखानि अन्येषां भवन्ति एव तत्र एव इत्युक्ते अर्थः कः तत्र संशयः नास्ति तस्मिन् विषये संशयः इदानीं मम कोऽपि संशयः नास्ति तत्र तत् सत्यमेव भवन्ति एव तत्र मम विश्वासः अस्ति अस्मिन् विषये तत्र अन्येषाम् इतोपि अधिकानि दुःखानि भवन्ति एव इति मम विश्वासः अस्ति विश्वासः अस्ति इति प्रदर्शयितुम् एव इति तत्र स्थापितं समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे रघुवीरनन्दस्वामीजी
आं महोदय
ततः क्षणेनैव अन्तिमपरिच्छेदः
ततः क्षणेनैव सः ब्राह्मणः अन्तर्धानः अभवत् ताः पेटिकाः तत् अरण्यं चापि अदृश्यतां गतानि माधवः भगवान् माम् एव बोधिवान् इति ज्ञात्वा नितरां सन्तुष्टः अभवत् ततः सः धैर्येण एव कष्टानि सोढवान् अन्ते च सुखं प्राप्तवान्
ततः सः ब्राह्मण भगवान् एव ब्राह्मणरूपेण आगतवान् आसीत् इदानीं तत्र माधवस्य वचनं श्रुत्वा सः क्षणेन एव सः किं कृतवान्
क्षणेनैव वा
क्षणेनैव
अन्तर्धानं कृतवान्
अन्तर्धानः अभवत् तत्र इदानीं तत्र सः न दृश्यते ताः
पेटिकाः तत् ताः पेटिकाः द्वितीयविभक्तिः महोदय तत् अरण्यं च अपि दृश्यतां गतानि ओ केवलं ब्राह्मणः एव न
पेटिकाः अपि इदानीं तत्र तत्र अरण्यं च अपि तत्र अदृश्यतां गतानि तत्र कुत्र गतानि तत्र अदृश्यतां तत्र इत्युक्ते तत्र इदानीं ते अपि न दृश्यन्ते तत्र पेटिकाः अपि न दृश्यन्ते अरण्यमपि न दृश्यते अग्रे
प्रयोगं कीदृशप्रयोगं महोदय तत् अदृश्यतां गतानि
अदृश्यतां गतानि तत्र अदृश्यता या अस्ति ताम् अदृश्यतां प्राप्तवन्तः इत्युक्ते इदानीं न दृश्यते तत्र गतानि दृश्यता इति भावः अदृश्यता इति भावः महोदय यदि किमपि द्रष्टुं शक्नुमः इदानीं तत्र मम पुरतः तत्र पुस्तकमस्ति पुस्तकं द्रष्टुं शक्नोमि पुस्तकं दृश्यते इदानीं तत्र पुस्तके कीदृश तत्र गुणमस्ति इत्युक्ते तत्र दृश्यता गुणमस्ति यतोहि पुस्तकं दृश्यते इदानीं तत्र अरण्यं पूर्वम् अरण्यं पूर्वं दृश्यते इदानीं तु न दृश्यते अतः न दृश्यते इति कृत्वा अरण्ये तत्र न दृश्यते अरण्यं नास्ति किन्तु अदृश्यतां प्राप्तं तत्र अदृश्यतां प्राप्तम् अरण्यम् इत्युक्ते इदानीं न दृश्यते तावदेव
अरण्यं दृश्यते एव भाति महोदय
अरण्यं पूर्वं दृश्यते इदानीं न
दृश्यते
अदृश्यतम् अदृश्यताम् अदृश्यता इति भावः दृश्यते चेत् दृश्यता इति भावः न दृश्यते इत्युक्ते अदृश्यता इति भावः
गतानि इति
तत्र गतं तत्र तत्र गतम् अदृश्यतां गतम् अदृश्यतां प्राप्तम् इति तत्र
बेङ्गलूरुनगरं
बेङ्गलूरुनगरं गतं तत्र तत्र वाहनं बेङ्गलूरुनगरं गतम् अथवा बेङ्गलूरुनगरं प्राप्तं तत्र अदृश्यता इति भावः यः अस्ति तत्र तं भावं प्राप्तम् अरण्यम् इति इत्युक्ते दृश्यता पूर्वम् आसीत् इदानीम् अदृश्यता अस्ति नाम तत्र न दृश्यते तावदेव
महोदय किन्तु गतानि इति पदस्य
गतम् इति तत्र अदृश्यतां तत्र अरण्यम् अस्ति इति कृत्वा तत्र नपुंसकलिङ्गं स्वीकृतमस्ति महोदय अपि बहुवचने अस्ति इति कृत्वा तत्र गतानि इति
गतानि आसीत्
अरण्यम् अरण्यम् इति एकवचने एव अस्ति किन्तु तत्र लिङ्गं तत्र यदि तत्र समूहः अस्ति अत्र च इति अस्ति खलु तत्र च अपि अदृश्यतां गतानि च प्राक्
पेटिकाः अरण्यं च
हा तत्र समूहः अस्ति तत्र इदानीं तत्र तस्मिन् समूहस्य विषये किमपि वदामश्चेत् तत्र किं कुर्मः अन्तिमसदस्यस्य लिङ्गं स्वीकुर्मः
अरण्यमस्ति अन्तिमसदस्यः
हा अतः गतम् इति किन्तु तत्र अनेकाः सदस्याः सन्ति इति कृत्वा अनेके सदस्याः सन्ति इति कृत्वा गतानि इति यदि तत्र तत् अरण्यं ताः पेटिकाः च अपि अदृश्यताम् इदानीं किं भवति तत्र
महोदय ताः पेटिकाः एव
गताः इति भवति गता इति स्त्रीलिङ्गे
गतं गते गतानि नास्ति ओ स्त्रीलिङ्गे अस्तु अस्तु पेटिका
पेटिका इति अस्ति पेटिका गता इति भवति अरण्यं गतम् इति भवति पुरुषः गतलिङ्गम्
अन्तिमसदस्यलिङ्गम्
अन्तिमसदस्यस्य लिङ्गं किन्तु यदि तत्र किन्तु वचनं तु तत्र कति जनाः समूहं सर्वं दृष्ट्वा समूहे कति जनाः सन्ति इति कृत्वा तत्र वचनस्य निर्णयः भवति, किन्तु लिङ्गं तु अन्तिमसदस्यस्य इति, अतः एव गतानि इति अस्ति
महोदय. तत्र राम लक्ष्मण सीता च सारि क्षम्यतां किं भवति गताः गताः तत्र न किमपि अन्तिमस्य च इति वदामः अन्तिमलिङ्ग करणीयं स्वीकरणीयं वा खलु
इति तत्र यदि तत्र तत्र महोदय तत्र विकल्पः अस्ति वा इति जानामि, किन्तु तत्र एतादृश अन्यानि वाक्यानि अपि
दृष्टवस्वप्ने
दृष्टवन्तः इति कृत्वा, किन्तु भवतः प्रश्नः अपि समीचीनः. यदि वयं वदामः तत्र राम रामः सीता लक्ष्मणः तत्र वनं गतवन्तः इति वदामः, किन्तु राम लक्ष्मण सीता इति अस्ति चेत् तत्र वनं गतवत्यः इति वदामः वा किम् इति खलु. तत्र न जानामि महोदय, तत्र प्रष्टव्यम् अस्ति, किन्तु अत्र रूपं दृष्ट्वा मम ऊहा अस्ति एतद् इति. किन्तु समीचीन एव, तत्र एकवारम् अहमपि पृच्छामि, अन्यान् अन्वेषणं कुर्मः.
अस्तु महोदय, धन्यवादः.
किन्तु गतानीति अस्ति प्रायशः एतत् कारणं भवेत्, किन्तु तत् सत्यं वा न इति अपि किञ्चित् अधिकम् अन्वेषणं. अस्तु अग्रे रघुविनन्दन् महोदय.
माधवः भगवान् माम् एव बोधिवान् इति ज्ञात्वा इतरां सन्तुष्टः अभवत्.
तत्र बोधितवान् तत्र माम् एवं
बोधितवान् बोधिवान्
बोधितवान् इति माम् एवं बोधितवान् इति प्रायशः बोधितवान् इति चिन्तयामि महोदय, तत्र मुद्रणदोषः इति मन्ये. तत्र बोधिवान् इति नास्ति, बोधितवान् इति, सः एव बोधितवान् माम् एवं बोधितवान्, सः एव माम् एवं बोधितवान् इति ज्ञात्वा तत्र बोधितवान् इति एव सम्यक् इति मन्ये महोदय.
आम् बोधितवान् तव इति अस्ति भवेत् एव.
सः माधवः नितरां सन्तुष्टः
सन्तुष्टः
अभवत्. अग्रे
ततः सः धैर्येण एव कष्टानि सोढवान्.
तत्र सोढवान् तत्र अस्तु, कष्टं यत्किमपि भवतु अहं तत्र तत्र तस्य सहनं कर्तुं शक्नोमि. तत्र सोढवान् कष्टानि,
भारम् अल्पमेव
अल्पमेव इति चिन्तयित्वा तत्र किमपि कष्टं नास्ति.
तदेव ज्ञानस्य परिणामः खलु महोदय, तदेव ज्ञानस्य परिणामः खलु. अन्येषां कृते मम दुःखं तु बहु अल्पमेव
सत्यं महोदय. अतः तत्र
अन्ते
च सः सुखं प्राप्तवान्
तत्र दुःखम् इदानीं नास्ति, दुःखम् अल्पमेव अस्ति इति चिन्तयित्वा इदानीं सः सुखं प्राप्तवान्. अस्तु समीचीनं, धन्यवादः महोदय. अस्तु तत्र कथायाः विषये कोऽपि प्रश्नः अस्ति वा? अतः तत्र चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च, चक्रवत् इति चक्रम् इव. अस्तु इदानीम् अतः तत्र प्रश्नः नास्ति चेत् इदानीं गीतासोपनं गच्छामः. तत्र नूतन अध्यायः दशम अध्यायः गणनां कुर्मः इति पुटसङ्ख्या अस्ति तत्र किं षष्टिः. अस्तु तत्र रवि महोदय आरम्भं करोति वा? रवि महोदय अस्ति वा?
आम्
अस्तु, तत्र
गणनां कुर्मः संख्यासु लिङ्गभेदः विशेषणविशेष्यभावः पुल्लिङ्गे एकः बालकः स्त्रीलिङ्गे एका बालिका पुंसकलिङ्गे एकं दूरदर्शनम्
जानीमः तत्र एका इति संख्या अस्ति चेत् तत्र लिङ्गभेदः अस्ति एकः एका अथवा एकम् इदानीं तत्र द्विवचने तत्र लिङ्गभेदः अस्ति वा
लिङ्गभेदः अस्ति एका
एक एकः मध्ये लिङ्गभेदः अस्ति द्विवचने तत्र युवकौ अस्ति
एकौ
न द्वौ
एके बालिके
न एके बालिके एके बालिके न द्वे द्वे बालिके द्वे बालिके
द्वौ युवकौ द्वे बालिके महिले द्वे फले
द्वे फले तत्र द्वौ द्वे द्वे इति रूपं भवति अग्रे तत्र
त्रयः छात्राः तिस्रः नर्तक्यः त्रीणि पुष्पाणि
इदानीं तत्र त्रयः इति पुल्लिङ्गे तिस्रः इति स्त्रीलिङ्गे त्रीणि इति नपुंसकलिङ्गे तत्र अभ्यासपुस्तके अपि एतत् दृष्टवन्तः पूर्वम् अग्रिमे तत्र चत्वारः
पत्रकाराः चतस्रः कूप्यः चत्वारि छत्राणि
तत्र चत्वारि छत्राणि किञ्चित् क्लेशः अस्ति चत्वारि छत्राणि इति किन्तु चत्वारि पुष्पाणि इति प्रायशः सुलभः अस्ति किन्तु तत्रापि लिङ्गभेदः अस्ति तत्र चत्वारः पुल्लिङ्गे चतस्रः स्त्रीलिङ्गे चत्वारि नपुंसकलिङ्गे किन्तु तदनन्तरं पञ्च आरभ्य किं भवति
पञ्चवैद्याः पञ्चद्रोण्यः पञ्चकङ्कतानि
तत्र लिङ्गभेदः अस्ति
वा लिङ्गभेदः नास्ति
ततः अतः पञ्च आरभ्य तत्र पञ्चतः तत्र लिङ्गभेदः नास्ति इति एव तत्र मूलविषयः इदानीं तत्र एकः अथवा एका अथवा एकम् अथवा तिस्रः त्रीणि इति तत्र एतत् सर्वं तत्र विभक्तिका यत् चित्रे दर्शितमस्ति महोदय रविमहोदय तत्र विभक्तिका तत्र सर्वेषां प्रथमविभक्तौ विभक्तिः एव इदानीं तत्र तेषाम् अन्या विभक्तिरूपं
विशेषणविशेषभावः
तत्र एकः बालकः अस्ति इदानीं तत्र तं बालकं पश्यामि इति भवति चेत् तत्र एकः किं भवति इति प्रश्नः अतः तत्र एकं बालकं विशेषणम् इति कृत्वा एकं बालकं पश्यामि अथवा एकां बालिकां प्रेषयामि इति तत्र विशेषणविशेष्यभावः भवति इति इदानीं तत्र अस्माकं मूलविषयः भवति अस्तु समीचीनं महोदय अस्तु अग्रे तत्र गीताञ्जलिभगिनी अग्रे तत्र किं तत्र अवधेयम् इति पठति वा तत्र अग्रिमे पुटे
पठत अवगच्छत च इति महोदय
तत्र प्रायशः तत्र केवलं तत्र प्रातिपदिकं किम् इति केवलं तत् पठतु भगिनि तत्र
आं महोदय प्रातिपदिकम् इत्युक्ते एक द्वि त्रि चतुर् पञ्चन् षष् सप्तन् अष्टन् नवन् दशन्
इदानीं तत्र पञ्चन् षष् सप्तन् अष्टन् नवन् दशन् एतत् सर्वं हलन्तपदं खलु
नकारान्त सर्वाणि सर्वे सर्वाः सङ्ख्याः पञ्च आरम्भतः नकारान्त हलन्त पदानि वा
इति नास्ति, इति नास्ति भगिनि, इति नास्ति. पश्यामः तत्र किं भवति इति. अग्रे दत्तमस्ति किन्तु तत्र शतम् इति अस्ति खलु, तत्र शतं तु हलन्तपदं नास्ति.
प्रातिपदिकं तु न जानामि तत्र.
शतं शतम् इति तु तत्र शतं तत्र वनम् इव एव.
ओ शत अकारान्त वा.
इदानीं तत् अवधेयम् इति अस्ति.
अवधेयम् एकं द्वे त्रीणि चत्वारि इत्यादयः सङ्ख्यावाचकशब्दाः अपि विशेषणानि भवन्ति. एकं द्वे त्रीणि चत्वारि इत्येतेषां चतुर्णाम् एव त्रिषु लिङ्गेषु भिन्नानि रूपाणि भवन्ति. ततः अग्रे त्रिषु अपि लिङ्गेषु समानं रूपं भवति.
अतः तत्र किम् अस्ति, तत्र एकं द्वे त्रीणि चत्वारि तेषाम् एव तत्र लिङ्गभेदः अस्ति. त्रिषु लिङ्गेषु भिन्नानि रूपाणि सन्ति.
अपि च संख्यावाचकशब्दः तु विशेषणानि एव.
ते सर्वे विशेषणानि भवन्ति. अतः तत्र विशेषणमस्ति चेत् तत्र विशेष्यस्य लिङ्गं दृष्ट्वा एतस्य लिङ्गं भवति. अपि तत्र विभक्तिवचनं सर्वम् अपि भवति. अतः तत्र अग्रे तत्र सङ्ख्यायाः विभक्तिरूपाणि तत्र तदेव पश्यामः अग्रे. अग्रिमं भगिनि पञ्च इत्यतः
आरभ्य नवदशपर्यन्तं सङ्ख्यावाचकशब्दाः नित्यबहुवचनान्ताः भवन्ति.
तत्र नित्यबहुवचनान्ताः तत्र इत्युक्ते तत्र बहुवचनरूपमेव तेषां
वचनरूपम् एकमेव सन्ति.
बहुवचनरूपम् एव तेषां भवति.
वचनरूपम् एकमेव बहुवचनमस्ति.
बहुवचनं तदेव रूपं भवति.
अस्तु, वयं तु मन्ये इत्युक्ते पञ्च तु न, किन्तु द्वे त्रीणि चत्वारि अपि बहुवचन एव भव.
न न तत्र एकं द्वे तु तत्र न एकं द्वे तत्र एकम् एकवचने एव भवति. द्वि इति द्विवचने एव भवति. त्रि इति बहुवचने एव.
इत्युक्ते त्रीणि चत्वारि अपि नित्य बहुवच वचन एव भवेत् इति मन्ये, किन्तु
तत्र वदन्ति पश्यामः.
अष्टन् शब्दस्य अष्ट अष्टौ इति रूपद्वयं भवति. विंशतितः नवनवतिपर्यन्तं सर्वे अपि सङ्ख्यावाचकशब्दाः एकवचनान्ताः स्त्रीलिङ्गाश्च भवन्ति.
तत्र विंशतितः नवनवतिपर्यन्तं तत्र एकवचनान्ताः स्त्रीलिङ्गाश्च भवन्ति इति तत्र तस्य अर्थः कः इति अग्रिमे वर्गे पश्यामः. किन्तु अन्तिमं तत्र केवलम् एकवारं
अस्तु महोदय. शतं शब्दः नपुंसकः पुंलिङ्गशब्दः अस्तु
च पुल्लिङ्गश्च इति. अतः तत्र अग्रे तत्र अवधेयम् इति तत्र ये नियमाः दत्ताः सन्ति तत्र तेषाम् अर्थः अग्रिमे पुटे तत्र सर्वम् अपि पुनः अर्थः दत्तः अस्ति, परिशीलयामः. अस्तु, तर्हि समीचीनम्. अस्तु, रघुवीरनन्द स्वामी भवान् एव तत्र अन्ते शान्तिमन्त्रं वदति वा.
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्कारः. धन्यवादः.